इदानीम् अद्यतनकक्षा प्रारभ्यते. प्रथमं सूत्रम् उपसर्गाक्रियायोगे इति अस्ति. उपसर्गाक्रियायोगे इति प्रथमाध्यायस्य चतुर्थपादस्य सूत्रम् एकोनषष्टितमसूत्रम्. कृपया प्रथमाध्यायं स्वीकुर्वन्तु सर्वे. अष्टाध्यायीमध्ये प्रथमाध्यायस्य चतुर्थपादस्य सूत्रम् सूत्रं लब्धं वा? सूत्रं लब्धं वा? फिफ्टि एट् मध्ये अस्ति. अस्तु, 58 प्रादयः अस्ति. अस्तु, कदाचित् भेदः स्यात् सङ्ख्यामध्ये, 58 वा 59 वा अस्ति, तर्हि उपसर्गाक्रियायोगे इति सूत्रं विद्यते. ततः पूर्वं प्रादयः इति सूत्रं विद्यते. अत्र प्रादयः इति सूत्रस्य अनुवृत्तिः इत्युक्ते, प्रादयः इति पदं कुत्र पर्यन्तम् अनुवृत्यते? प्रादयः इति पदस्य पार्श्वे एका संख्या विद्यते. का सा संख्या? षष्टि. अस्तु, इत्युक्ते प्रादयः इति पदम् अग्रिमसूत्रे उपसर्गाक्रियायोगे इति सूत्रे आगच्छति, गतिश्च इति सूत्रे अपि आगच्छति. एवम् उपसर्गाक्रियायोगे इति सूत्रं विपदात्मकं सूत्रम्. उपसर्गाः इति प्रथमाविभक्ति बहुवचनम् अस्ति, क्रियायोगे इत्यत्र सप्तमविभक्ति एकवचनमस्ति. अस्य सूत्रस्य एतत् संज्ञासूत्रं विद्यते. किं संज्ञानेन विधीयते इत्युक्ते, उपसर्गसंज्ञा विधीयते. केषाम् उपसर्गसंज्ञा? तदा उच्यते प्रादयः इति सूत्रात् प्रादयः इति शब्दम् स्वीक्रियते. प्रादयः इत्यत्र के शब्दाः इत्युक्ते, प्र पर अप सम सम् अनु अव निर्निस् दुर्दुस् वियान्नि अधि अति सु उद् अभिप्रतिपरि अप, एते प्रादयः भवन्ति. कुत्र निर्दिष्टाः? पाणिना तु प्रादयः इत्येव, अष्टाध्यायीमध्ये तु प्रादयः इति अस्ति. तर्हि कुत्र निर्दिष्टाः एते इति प्रश्नः समभवति. तदा उत्तरं दीयते अस्माभिः व्याकरणस्य परिचयकक्षायां. तत्र उक्तं पाणिनिपञ्चकम् इति अस्ति इति. तत्र आदौ गणपाठः, ततः सूत्रपाठः. प्रादयः नाम प्रादीनां गणः विद्यते. एतेषु गणेषु के पदानि सङ्गृहीतानि भवन्ति इत्युक्ते, प्रापर, तत्र स्लैड् मध्ये अस्ति प्रापराप सम इति, तेषां पदानां सङ्ग्रहो विद्यते. एवम् आदौ गणपाठः पाणिनिः करोति, ततः परं गणपाठस्य उल्लेखः एवं सूत्रमध्ये यथा अत्र कृतं तथैव करोति. प्रादीनां गणः विद्यते. प्रादीनाम के इत्युक्ते प्रादयः, एते शब्दाः प्रादयः. तत्र प्रादयः इत्यत्र समासः कः इत्युक्ते, प्रशब्दः आदिः, येषां ते प्रादयः इति प्रादिशब्दस्य समासः, प्रादयः इत्यत्र समासः. क्रियायोगे इत्यत्र क्रियया योगः क्रियायोगः. एते प्रादिशब्दाः, अत्र निर्दिष्टाः शब्दाः, परिगणिताः शब्दाः यदि क्रियया सह युज्यते तर्हि एतेषां काश्चित् विशेषनाम सम्भवति इति उक्तिः। इदानीं प्रादयः इति प्रादिगणान्तर्गतः एते शब्दाः, एतेषां क्रिया क्रियया योगः यदा सम्भवति तदा एतेषां विशिष्टनाम विद्यते। किं तत् नाम इत्युक्ते तदा उच्यते उपसर्गः इति, तस्य नाम भवति, स एव उच्यते। प्रादयः क्रियायोगे उपसर्गसंज्ञा स्युः, क्रियायोगे एव एतेषाम् उपसर्गसंज्ञा स्युः। एवं क्रियया सह अन्विते सति एते प्रादयः कति सन्ति इति प्रश्नः, द्वाविंशति इति उत्तरम्। उपसर्गसंज्ञकाः भवन्ति। एवम् इदानीम् उपसर्गाणां कार्यं तु वयं जानीमः, उपसर्गेण धात्वर्थः बलादन्यत्र दीयते, प्राहाराहारसंहारविहारपरिहारवत् इत्यपि अस्ति। तत्र धातुमञ्जर्यां किं भवति इत्युक्ते, धातुमञ्जरी आरस्वाद्यार् धातुमञ्जरी अस्ति, तत्र आदौ उपसर्गाणां विषये बहु उक्तमस्ति। तत्र एका कारिका विद्यते, उपसर्गेण धात्वर्थो तत्तु सर्वे जानन्ति, बलादन्यत्र नीयते, प्रहाराहारसंहारविहारपरिहारवत् इति। धात्वर्थे बाधते कश्चित्, कश्चित् तम् अनुवर्तते, तमेव विशिनष्ट्यन्यः उपसर्गगतिस्त्रिधा इति उपसर्गाणां कार्यं। तत्र धात्वर्थबाधः तं विशेषरीत्या अर्थोक्तिः, तत्र धात्वर्थे बाधते कश्चित्, कश्चित् तम् अनुवर्तते, कश्चित् स एव अर्थः उच्यते, कदाचित् अर्थस्य व्यत्यासोऽपि भवति। एवम् उपसर्गाणां कार्यत्रयं तत्र विहितम्। एवम् उपसर्गात् क्रियायोगे इति सूत्रम् इदानीं किं करोति, प्रादीनाम् उपसर्ग इति संज्ञा विधास्यति। इदानीम् उप एधते इति अस्ति, अत्र उप इति उपसर्गस्य योगः एधते इति क्रियापदेन सह वर्तते, तत् अतः उप इत्यस्य उपसर्गसंज्ञा, उप इति प्रादिः, प्रादिशब्दः, प्रादिगणान्तर्गतशब्दः, प्रादिगणान्तर्गतशब्दस्य यदा एधते इति क्रियापदेन सहितः अन्वयः प्राप्तः तदा उप इति शब्दस्य उपसर्ग इति संज्ञा प्राप्यते। केन सूत्रेण उपसर्गसंज्ञा प्राप्यते इत्युक्ते, उपसर्गात् क्रियायोगे इति सूत्रेणैव, अनेनैव सूत्रेण उपसर्गसंज्ञा प्राप्यते। इदानीं यदि प्रादीनां कश्चित् प्रादीनाम् अन्या काचित् संज्ञा विद्यते वा इत्युक्ते, आम् विद्यते इति अस्माकम् उत्तरम्। तत्रैव अस्ति प्रागीश्वरान् निपाताः इति सूत्रं विद्यते, प्रादयः इति प्रादयः इति सूत्रस्य उपरि चादयोसत्त्वे इति सूत्रं विद्यते, चादयोसत्त्वे इति सूत्रस्य उपरि प्रागीश्वरान्निपाताः इति सूत्रं विद्यते। तत्र प्रागीश्वरान्निपाताः इत्यस्मात् निपातसंज्ञायाः अनुवृत्तिः भवति। एवम् उपसर्गाणां निपातसंज्ञा अपि अस्ति इत्युक्ते प्रादीनां काका संज्ञाः सन्ति इत्युक्ते, प्रादीनाम् उपसर्गसंज्ञा अस्ति। प्रादीनां गतिश्च इति सूत्रेण गतिसंज्ञा अपि अस्ति. इदानीं प्रादीनां निपाताः इत्यनेन निपातसंज्ञा अपि अस्ति. इदानीं कदा कदा उपसर्गसंज्ञा इत्युक्ते क्रियायोगे उपसर्गसंज्ञा इति नियमः. एवं निपातसंज्ञाकरणं किमर्थम् इत्युक्ते निपातसंज्ञाकरणं स्वरादिनिपातम् अव्ययम् इति सूत्रं विद्यते. स्वरादिनिपातम् अव्ययम् निपातसंज्ञाकरणं प्रादीनाम् अव्ययत्वसम्पादनार्थम्. इदानीं प्रादयः उपसर्गाः ते अव्ययानि भवन्ति, अतः तेषाम् अव्ययत्वसम्पादनार्थम् एतेषां निपातसंज्ञा विद्यते. इदानीं निपाताः सर्वे निपातानि सर्वे अव्ययानि इति केन सूत्रेण उक्तम् इत्युक्ते स्वरादिनिपातमव्ययम्. तत् स्वरादिनिपातमव्ययम् इति कुत्र विद्यते तत्सूत्रम् इत्युक्ते स्वरादिनिपातमव्ययम् इति प्रथमाध्याये प्रथमपादे एव सप्तत्रिंशत्तमसूत्रम् स्वरादिनिपातमव्ययम् तेन सूत्रेण निपातानाम् अव्ययसंज्ञा विद्यते. इदानीम् अव्ययसंज्ञा प्राप्ता निपातानाम् अव्ययसंज्ञा प्राप्यते इति तत्र उच्यते. इदानीम् अत्र प्रादीनां निपातसंज्ञा किमर्थम् इत्युक्ते एतेषाम् अव्ययत्वसम्पादनार्थम्. इदानीम् अव्ययकोशः इति एकं पुस्तकं विद्यते, तत् तमिळ्नाडु मेड्रास् संस्कृत सोसैटि इत्यत्र अव्ययकोशः इति पुस्तकमेकं प्रकाशितं, बहु समीचीनं पुस्तकं तत्. तत्र एकः निपातशब्दस्य किञ्चित् निष्पत्तिः दर्शितः. नियमेन स्वार्थम् अन्येषां पातयिष्यन्ति इति निपाताः. कृपया लिखन्तु तत्, मया अत्र स्लैड् मध्ये न लिखितम्. नियमेन स्वार्थम् अन्येषां पातयिष्यन्ति इति निपाताः. इदानीम् उपसर्गाणां योजनेन किं भवति? उपसर्गाणां निपातसंज्ञा विद्यते. उपसर्गाणां योजनेन इदानीं गम् धातोः अनु इति योजनेन अनुगच्छति इति तर्हि अनुगच्छति इति शब्दस्य अर्थः फालोस् इति भवति. गम् गच्छति इत्यस्य अर्थः गोस् इति भवति. एवं निपात अनु इति शब्दस्य उपपदत्वेन इत्युक्ते पार्श्वे स्थितत्वेन गम् धातोः विशेषार्थः समागतः, अतः निपात अनु इति अनु इति शब्दस्य पार्श्वे स्थिते एव अनुगच्छति इत्यस्य फालोस् इति अर्थः भवति. यदि अनु इति पदं पार्श्वे स्थितं न भवति तर्हि गम् धातोः गच्छति गोस् इत्येव अर्थः, GOES गोस् इत्येव अर्थः. एवम् अनु इति निपातः उपसर्गोऽपि स्व अर्थं पत् गम् धातोः उपरि स्थापयति, अतः निपातः पातयति इत्युक्ते निपातः इति उक्तम्. एवं निपातानां विशिष्टस्थानं विद्यते. निपातस्य अन्यत् किमपि उदाहरणं वक्तुं शक्यते वा भवद्भिः? निपातस्य उदाहरणम् इति ही तत्र चित्त चना स्तुतं वा तदपि तौ द्वौपि निपातौ लट्स में इदानीं स्मे लक्ष्मे इत्यत्र पठति स्म इति अस्ति पठति इति वर्तमानकालिक अर्थं पट् धातोः भवति पठति स्म इत्युक्ते भूतकालिकरूपं ददाति तर्हि स्म इत्यस्य भूतकालार्थकः वा स्म यदि कश्चन धातुः स्म योगे भवति तर्हि भूतकालार्थको भवति स्म इति योगेन पट् धातोस्य उपरि भूतकालार्थकः पातितः एवं निपातः सञ्जातः स्म स्मे लट् स्मे इति स्म इति निपातः एवमेव बहवः निपाताः सन्ति इदानीम् उपसर्गक्रियायोगे इति सूत्रं किं करोति उपसर्गानां परिभाषा क्रियते इत्युक्ते संज्ञासूत्रम् उपसर्गम् उपसर्गाः के उपसर्गाः नाम किम् इत्युक्ते उपसर्गक्रियायोगे तत्र प्रादयः इति केचन शब्दाः भवन्ति ते यदि क्रियया युज्यन्ते तदा प्रादीनाम् उपसर्गसंज्ञाः भवन्ति के ते प्रादयः इत्युक्ते विंशतिप्रादयः सन्ति द्वाविंशतिप्रादयः सन्ति तेषां परिगणनं कृतं कुत्र कृतं गणपाठे कृतं गणपाठः किमर्थम् आवश्यकः आदौ पाणिनिः गणपाठं कृत्वा एव सूत्रपाठः कृतवान् एवं गणपाठस्य निर्देशः तत्र सूत्रेषु अपि भवति इदानीम् अग्रिमसूत्रं पश्यामः भूवादयो धातवः इति सूत्रम् अग्रिमसूत्रे पदद्वयं विद्यते भूवादयः भूवादयः इत्यत्र तत्र दोषः सञ्जातः विभक्तिदोषः सञ्जातः भूवादयः इत्यत्र प्रथमाविभक्ति बहुवचनमस्ति धातवः इत्यत्रापि 1.3 भवेत् तत्र उट्टङ्कनदोषः सञ्जातः भूवादयः प्रथमाविभक्तिबहुवचनं धातवः अपि प्रथमाविभक्तिबहुवचनम् अस्ति सूत्रार्थः क्रियावाचिनः भूवादयः धातुसंज्ञाः स्युः कथम् इत्युक्ते एतत् संज्ञासूत्रमस्ति किं संज्ञां विधास्यति एतत् सूत्रम् इत्युक्ते धातुसंज्ञां विधीयते अनेन सूत्रेण भूवादयः इत्यत्र कः समासः इत्युक्ते भूश्च वाश्च भुवौ इति भुवौ आदयः भुवौ आदि येषान्ते भू आदयः तत्र आदिश्च आदिश्च आदी इति भवति द्वन्द्वसमासः भुवौ आदि येषान्ते भू आदयः इति बहुव्रीहिसमासः भवति इदानीं भू आदयः इत्युक्ते भूवादीनां किं सञ्जातम् इत्युक्ते भूवादीनां धातुसंज्ञा विधीयते अत्र विशेषतया अस्माभिः तत्र अवधानं दातव्यम् इत्युक्ते अत्र कदाचित् भूश्च वाश्च भुवौ भूधातोः ग्रहणम् अत्र अस्ति वा धातोः ग्रहणमस्ति अत्र प्रश्नः उदेति किमर्थं धातुद्वयस्य स्वीकारः अस्मिन् सूत्रे भूप्रभृतयः इत्येव द्वादयो धातवः इत्येव उच्यते चेत् तदा कः दोषः यतोहि द्वादयः इत्यनेनैव सर्वेषां धातूनां परिगणनं भवति इदानीं तदा प्रश्नः उच्यते तत्र भू तत्र आदिशब्दः आदयः इत्यत्र आदयः इत्यत्र आदि आदिशब्दस्य अनुकरणम् इत्युक्ते आवृत्तिद्वयं कृतम् आदिश्च आदि आदिश्च आदि इति प्रथम आदिशब्दः प्रभृतिवचनः द्वितीय आदिशब्दः प्रकारवचनः प्रभृतिवचनः नाम किम् इदानीं हिमालयात् प्रभृति कन्याकुमारीपर्यन्तम् इत्युक्ते श्रूयते वा अस्तु हिमालयात् प्रभृति हिमालयात् प्रभृति हा हिमालयादारभ्य उषा भगिनी सम्यक् उक्तवती विद्या भगिनी अपि उक्तवती तत्र हिमालयादारभ्य हिमालयात् प्रभृति कन्याकुमारीपर्यन्तम् इति उच्यते यदा तदारभ्य इति तस्यार्थः एवं प्रथम आदिशब्दः भूः प्रभृतयः वा सदृशाः धातुसंज्ञा संज्ञकाः भवन्ति कथम् इदं भूप्रभृतयः इत्युक्ते केषां केषां ग्रहणं भवति इति प्रश्नः उदेति तदा अस्माकं धातूनां विभागः धातुपाठे निर्दिष्टः धातुपाठे दशगणाः निर्दिष्टाः दशगणानां न भ्वादिगणः अदादिगणः तुदादिगणः जुहोत्यादि इत्यादि गणाः सन्ति एतेषु गणेषु अन्तर्भूतः सर्वे शब्दाः धातुसंज्ञकाः इति सूचयितुम् अत्र भू भू भूशब्दः प्रभृतिवाचकः अस्ति इदानीं तर्हि किमर्थं वा धातोः वा इत्यस्य स्वीकारः अस्मिन् सूत्रे इत्युक्ते इदानीं भूशब्दस्य भूशब्दस्य धातुत्वम् आगतम् वा शब्दस्यापि एतेषु दशसु गणेषु एव अन्तर्भूतः अन्तर्भूतः अस्ति अतः तस्यापि धातुसंज्ञा स्वयमेव सिद्धं किल किमर्थं पुनः तत्र अत्र वा इति शब्दस्य ग्रहणम् इति प्रश्नः उदेति तदा उच्यते भूसदृशाः भू आरभ्य परिगणिताः सर्वे धातवः दशसु गणेषु ये सन्ति तेषां धातुसंज्ञा तर्हि एकः शब्दः अस्ति भूः भुवौ भुवः इति कश्चन शब्दः विद्यते तस्यापि भूमिः इति अर्थः लभ्य भूमिः इति शब्दः भूः भूर्भूमिरचलान् अचलानन्ता रसा विश्वम्भरा स्थिरा इति अमरकोशे विद्यते तत्र भूशब्दस्य भूमित्वमपि आगच्छति तर्हि भूशब्दस्य भूमिः इति यदा अर्थः भवति तदा धातुत्वम् आगच्छति वा इति प्रश्ने कृते नैव आगच्छति इति उत्तरम् कथं ज्ञायते भवद्भिः एतेन सूत्रेण इति प्रश्ने कृते तत्र वा इति अस्ति वा धातुः वा इति वा शब्दस्य वा धातोः अथवा वा शब्दस्य ग्रहणेन अस्मिन् सूत्रे प्रकारत्वं द्योतते प्रकारत्वं नाम किं सदृशत्वं सदृशत्वं नाम किं तत्र जस्ट् लैक् वा हौ वा इस् सिमिलर्लि भू शुड् बि सदृशाः इत्युक्ते क्रियावाचित्वं भवेत् क्रियावाचकत्वं भवेत् भूशब्दः भूवादिशब्दाः भवेत् तेषां क्रियावाचित्वं भवेत् यदि क्रियावाचित्वमपि अस्ति दशसु गणेषु अपि अन्तर्भवन्ति तेषां धातुसंज्ञा अन्येषां शब्दानां धातुसंज्ञा नास्ति इदानीं भू भुवौ भुवः इत्यत्र भूः भू इति शब्दस्य ऊकारान्तशब्दस्य कदाचित् भूमिः इति अर्थे सञ्जाते तस्य भूसदृश भूप्रभ इत्युक्ते कदाचित् तस्य भू इत्युक्ते स्वरूपं तु आगतं, परन्तु क्रियावाचित्वं नास्ति तस्य, क्रियार्थः नास्ति। भूसत्तायाम् इति यथा क्रियार्थः सूच्यते, तथा भू भुवो भुवः इत्यत्र भूशब्दस्य क्रियावाचित्वं नास्ति, क्रियावाचकत्वं नास्ति। अतः भूप्रभृतयः वा सदृशाः धातुसंज्ञकाः धातुसंज्ञाः स्युः। तदेव उच्यते क्रियावाचिनः भवादयः धातुसंज्ञाः स्युः इति लघुकौमुद्याम् अर्थः एवं वर्णितः। एवं धातुपाठे पठित सर्वेषां शब्दानां काञ्चन क्रियां प्रकटीकरोति, तर्हि सा क्रिया धातुसंज्ञिका भवति इति इदं सूत्रं कथयति। उदाहरणार्थं भूसत्तायाम् इति धातुः क्रियावाचकत्वात् धातुसंज्ञकः अस्ति, किन्तु यदि भू इति शब्दः पृथिव्यादीनाम् अर्थे प्रयुक्तः भवति तर्हि असौ शब्दः धातुसंज्ञकः न भवति, यतोहि एतादृश्यां स्थितौ स शब्दः क्रियावाचको न भूत्वा केवलं संज्ञामात्रम् अस्ति। अतः सूत्रार्थे क्रियावाचिनः इति अस्माभिः वक्तव्यम् एव। क्रियावाचिनः भुवादयः धातुसंज्ञाः भवन्ति इति सूत्रार्थः वर्णितः। अवगतं वा? अस्तु, अग्रे गच्छामः। अग्रिमसूत्रं विद्यते उपसर्गाद् ऋतिधातौ इति। अत्र पदत्रयं विद्यते उपसर्गात् ऋतिधातौ। इदानीम् अस्माकं प्रश्नः एवं भवति, सन्धिप्रकरणे अच्छन्धिप्रकरणे किमर्थं धातूनां धातुसंज्ञा उच्यते, अच्छन्धिप्रकरणे किमर्थम् उपसर्गसंज्ञा उच्यते इति प्रश्ने कृते इदानीम् अत्र उपसर्गाद् ऋतिधातौ इत्यत्र संज्ञाद्वयस्य अपेक्षा अस्ति, उपसर्गसंज्ञायाः अपेक्षा अपि अस्ति, धातुसंज्ञायाः अपेक्षा अपि अस्ति। अतः प्रसङ्गवशात् उपसर्गसंज्ञा उपसर्गाक्रियायोगे इति सूत्रेण अत्र उक्तम्। तदनन्तरं धातूनां संज्ञापि भूवादयो दातवः इत्यनेन धातुसंज्ञापि अत्रैव उक्तम्। इदानीम् उपसर्गादृतिधातौ इत्यत्र पदद्वयं विद्यते, उपसर्गात् पञ्चमीभक्त्यैकवचनम्, ऋति सप्तमीभक्त्यैकवचनम्, धातौ सप्तमीभक्त्यैकवचनम्, पदत्रयं विद्यते। आद्गुणः इत्यत्र उपसर्गादृतिधातौ इति सूत्रं षष्ठाध्यायस्य प्रथमपादे विद्यते। षष्ठाध्यायस्य प्रथमपादे तत्र एत्येतत्युट्सु इति सूत्रं पूर्वं दृष्टम् अस्माभिः, ततः परम् आटश्च इति वृद्धिसूत्रम् आटश्च इति अस्ति, ततः पदम् उपसर्गादृतिधातौ इति अस्ति। कृपया स्वीकृत्य अष्टाध्यायीं स्वीकृत्य कृपया पश्यन्तु। उपसर्गादृतिधातौ इत्यत्र इदानीम् आद्गुणः इत्यतः आदिति अनुवर्तते, एवं वृद्धिरेचि इत्यतः वृद्धिः इति पदम् अनुवर्तते, एवम् आत् उपसर्गात् अवर्णान्तात् उपसर्गात् ऋतिधातौ ऋकारादौ धातौ परे वृद्धिः 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 नाम प्रथमाविभक्तौ अस्ति, अतः विधेयः अस्ति, विधीयमानः वृद्धिः एव। वृद्धिः भवति कस्य भवति? एकः पूर्वपरयोः इति अधिकारः अस्ति, द्वयोः स्थाने वृद्धिः एकादेशः भवति। अवर्णान्तादुपसर्गात् ऋकारादौ धातौ परे वृद्धिः एकादेशः स्यात् इति सूत्रार्थः सम्पद्यते। इदानीम् अस्माभिः उदाहरणं द्रष्टुं शक्यते। तत्र प्ररुच्छति इति पदद्वयं विद्यते। प्र इत्यत्र उपसर्गः, प्र इति प्रादिगणान्तर्गतः उपसर्गः। इदानीं प्ररुच्छति इत्यत्र ऋच्छति तत्र धातुः ऋकारादि धातुः वर्तते ऋति इत्यत्र ऋकारादि धातुः एवम् अत्रापि ऋच्छति इत्यत्र ऋकारादि धातुः विद्यते इदानीं ऋकारादि धातुः तत्र ऋच् धातुः भ्वादिगणे अपि अस्ति तुदादिगणे अपि अस्ति गमनक्रियावाचि ऋ गतौ इत्येव भवति ऋच् गति गत्यर्थके एव अस्ति इदानीं ऋच्छति इत्यत्र धातुसंज्ञा केन सूत्रेण प्राप्ता इत्युक्ते ऋच्छति इत्यत्र धातुसंज्ञा भूवादयो धातवः इत्यनेन धातुसंज्ञा प्राप्ता प्र इति शब्दस्य उपसर्गसंज्ञा तत्र उपसर्गाक्रियायोगे इति उपसर्गसंज्ञा अपि प्राप्ता एवं संज्ञाद्वयं प्राप्तं संज्ञाद्वयस्य उपयोगः अस्मिन् सूत्रे विद्यते एतद्विधिसूत्रमस्ति संज्ञासूत्राणि परिभाषासूत्राणि विध्युपकारकाणि भवन्ति विधिसूत्रस्य उपकारं कुर्वन्ति अतः किञ्चित् सावधानतया अस्माभिः द्रष्टव्यम् इदानीं ऋच् धातु तदेव मया उक्तं तदेव पश्यन्नस्मि भ्वादिगणे अपि अस्ति तुदादिगणे अपि अस्ति गमनक्रियावाचि अस्ति अस्तु इदानीं किं भवति अकारऋकारयोः किं भवेत् आद्गुणः इति यथा महाप्लस् ऋषिः महर्षिः देवर्षिः देवर्षिः इत्यत्रापि यथा गुणस्य प्रसक्तिः तथा अत्रैव गुणस्य अत्रापि गुणस्य प्रसक्तिरेव प्रथमम् आगच्छति तदनन्तरम् उपसर्गाकृतिधातौ इति सूत्रेण अपवादात्मक एतेन सूत्रेण गुणः गुणं वारयित्वा आकारः वृद्धिः भवति इदानीं वृद्धि आकारः कथम् आगच्छति इत्युक्ते वृद्धिरादैच् आ ऐ औ इति वर्णत्रयं वृद्धिसंज्ञकाः भवन्ति एवं प्रथमं गुणं तु प्राप्स्यते तदनन्तरं गुणः अनेन सूत्रेण निवार्यते यतोहि एतत् अपवादात्मकं सूत्रं विशेषविधायकं सूत्रं यदि ऋकारादिधातुः अस्ति उपसर्गः अस्ति तर्हि ऋकारादिधातोः उपसर्गस्यापि किं करणीयम् इत्युक्ते वृद्धिः करणीयः इदानीं वृद्धिः आगच्छति परन्तु आ इति अण्वर्णः अतः उरण्ड्रपरः इति अनेन सूत्रेण रेफशिरस्क एव आर् इति भवति रेफशिरस्क एव आगच्छति आर् इति आदेशः आगच्छति एवं प्रार्थ्यति इति रूपं इदानीं सदगोपन्महोदयः पृच्छति हौ इस् वा प्रकारवाचि वा इस् नाट् ओन्ली अ धातु बट् इस् आल्सो एन् अव्यय तदेव वक्तुं वा तत्र तदेव वक्तुं वा वाति इदानीं गन्धः वाति दूरात् गन्धो वाति इति वातिशब्दः अस्ति वाति इत्यत्र वा धातुः अस्ति एवं वा यथा प्रकारवाचि नाम वा इति गणान्तः अपि भवेत् क्रियावाचि अपि भवेत् तदा एव तस्य किम् धातु संज्ञा आगच्छति। न तु केवलम् इदानीं वा इत्यस्य तथैव यथा वा इत्यस्यापि तथैव भू इत्यस्यापि। अत्र प्रश्नः धातुद्वयं किमर्थं निर्देशः इत्युक्ते एकस्य धातोः एकस्मात् धातोः सदृशत्वं स्वीक्रियते प्रभृत्यर्थं प्रभृति इति। तत्र भू इत्येव प्रथमद्वादि माङ्गलिको प्रथमः धातुः भू, अतः भू स्वीक्रियते। तदा उच्यते भू धातुगणे अन्तर्भवितव्यं, तथापि क्रियावाचित्वं भवेत् तस्य, यस्य कस्यापि धातोः क्रियावाचित्वं भवेत्। तत्सूचयितुमेव तत्र धातुद्वयं स्वीकृतं पाणिनिना। वियन्मीनाक्षि गुणसन्धि वा, गुणसन्धिः अत्र न भवति यतोहि गुणसन्धेः अपवादः एव एतत् सूत्रम्। एवम् अग्रे गच्छामः। एङि पररूपम् इति एकं सूत्रं विद्यते। एङि पररूपम् इत्यत्र पदद्वयं विद्यते। एङि पररूपम् इति एङि इत्यत्र सप्तमी एकवचनं विद्यते। पररूपम् इत्यत्र प्रथमाभक्ति एकवचनं विद्यते। इदानीं सूत्रं तत्र अष्टाध्याय्याम् उद्घाटयन्तु। षष्टाध्यायस्य प्रथमे पादे एकपूर्वपरयोः इत्यधिकारे एव अस्ति एङि पररूपम्। इदानीम् आद् उपसर्गात् एङादौ धातौ परे, आद् उपसर्गात् एङादौ धातौ परे पररूपम् एकादेशः स्यात् इति रूपसिद्धिः इति व्याकरणनियमः। इदानीम् एतदपि विधिसूत्रम् अस्ति सूत्रार्थस्य स्पष्टीकरणाय। अस्माभिः आद्गुणः इत्यस्मात् आत् इति शब्दस्य स्वीकृतिः, उपसर्गादृतिधातौ इत्यस्मात् उपसर्गाद्धातौ चेति पदयोः, तथा च एकपूर्वपरयोः इति अधिकारेण अत्रापि तत्रापि पूर्वपररूपादेशः अस्ति। सदगोपन्महाभागस्य प्रश्नः अस्ति तद एतत् सूत्रं समाप्य अहम् उत्तरं दास्यामि। सूत्रस्य भावार्थः एवमस्ति। इदानीं किम् अस्ति इत्युक्ते आत् उपसर्गात् पञ्चमी भक्ति अवर्णान्तादुपसर्गात् एङि धातौ एङादौ धातौ परे पररूपम् आदेशः भवति। पररूपं नाम विधेयः, पररूपं नाम विधेयः। इदानीं प्र येजते इति अस्ति। इदानीं येजृदीप्तौ इति धातुः अस्ति, प्रेजते प्र येजते प्रेजते प्र उप ओषति उपोषति इति अस्ति। प्र इति उपसर्गः अस्ति, उपसर्गात् क्रियायोगे इति उपसर्गसंज्ञा प्राप्ता। येजते इति येजादिधातुः विद्यते, एङादिधातुः विद्यते। अत्र अवर्णान्तः एङादिः अस्ति। वास्तविकतया अत्र किं भवितव्यम् इत्युक्ते वृद्धिरेचि इति वृद्धिः भवेत्, परन्तु पररूपम् एव स्वीकृतम्, अतः प्रेजते इति रूपमेव साधु। इदानीम् उप ओषधि इत्यत्रापि उप इति उपसर्गः, ओषधि इति धातुः, ओषधि इति शब्दः उषदोहने इति उप ओषधि, ओषधि इति शब्दः उषदाहे इत्यस्माद्धातोः लट्लकाररूपम्। এবং উপায় দিয়ে উপসর্গাহা বসতি ইতি উষা দাহেতি লট্লকার রূপম। তত্র উপায় ইত্যত্র অবর্ণান্তহ অস্তি এঙাদি ধাতুঃ অপি অস্তি। ইদানীম উপৌষতি ইতি বৃদ্ধি স্থানে কিম ভবতি উপৌষতি ইতি পররূপম ভবতি। এবং সূত্রমেতত বৃদ্ধিরেচি ইতি সূত্রেণ প্রাপ্তায়াহ বৃদ্ধেহ অপবাদহ অস্তি। ইদানীম ইন ইয়েধ ইয়েধতে প্রাপ্নস্যেধতে প্রাপ্নস্যেতি ইত্যস্মিন উদাহরণে তো ইয়েত্যেদত্যুৎসু ইতি সূত্রম অপবাদাত্মক রূপেণ স্থিতম ভবতি। এবং অত্র তত্র ইয়েত্যেদত্যুৎসু ইতি সূত্রস্য প্রবৃত্তিঃ ভবতি যথা পূর্বম অস্মাভিঃ দৃষ্টম। ইয়েত্যেদত্যুৎসু ইতি সূত্রম তো দৃষ্টমেব। ইদানীং সদগোপন মহোদয়স্য উত্তরম্। ইফ বু অলোন ইজ সাফিসিয়েন্ট ইনসাফিসিয়েন্ট বিকজ ইট হ্যাজ টু ডিফারেন্ট মিনিংস দেন ওয়ান এক্সাম্পল বা ইট সিমিলারলি হ্যাজ টু মিনিংস ইজ অলসো নট সাফিসিয়েন্ট দ্যাট ইজ ওয়াই বোথ দি এক্সাম্পলস বোথ ধাতুস আর টেকন দেয়ার সিম্পল। ইদানীং ভূ অলোন ইজ ইনসাফিসিয়েন্ট ওয়া অলোন ইজ ইনসাফিসিয়েন্ট ভূ অ্যান্ড ওয়া মেক ইট ফুলি সাফিসিয়েন্ট। That is why two dhatus are taken there. Bhu alone is insufficient. Va alone is insufficient. Therefore, Bhu and Va is indicated there. Whereas both Bhu and Va are sufficient. अस्तु इदानीम् अवगतं वा? अद्यतन पाठः किञ्चित् सुलभम् आसीत् यतो हि संज्ञासूत्रं सन्धिविधायकं सूत्रं तु सूत्रद्वयमेव अधीतम् अस्माभिः उपसर्गादृतिधातो इत्यत्र वृद्धिः इदानीम् एनी पररूपम् इत्यत्र पररूपादेशः भवति। ఏనీ పరూపం అపవాద ఏత్యేదత్యూట్సు ఏత్యేదత్యూట్సు ఇది ఎనీ పరూపం ఇత్యస్యాపి అపవాద ఏనీ పరూపం తో వృద్ధిరేచి ఇత్యస్య అపవాద ইদানীং এতাবদেব ময়া স্লাইড নির্মিতম তদপূর্বম ময়া যদি পাঠ কর্তুম শক্যতে তথাপি মম স্লাইড নাস্তি অতঃ অদ্যতন পাঠ অত্রৈব সমাপ্তিম কুর্মহ। অগ্রিম কক্ষায়াম টিসঞ্জ্ঞা শকন্দ্বাদিষু পররূপ সন্দেহে উদাহরণানি জ্ঞাস্যামহ। এবং तदनन्तरं सवर्णदीर्घसन्धिः इत्यादि सूत्राणाम् अर्थविवरणमपि ज्ञास्यामः। अस्तु समापनं कुर्मः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ಯೇನ ಧೌತಾಗಿರ ಪುಂಸಾ ವಿಮಳೈ ಶಬ್ದವಾರಿವಿ ತವಸ್ಸ ಅಜ್ಞಾನಜಂ ಭಿನ್ನಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ। ನತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಪುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ।